पूर्णबोधगुरुतीर्थपयोधिपारा कामारिमाक्षविषमाक्षशिरःस्पृशन्ती पूर्वोत्तरामिततरङ्गचरत्सुहंसा देवालिसेवितपराङ्घ्रिपयोजलग्ना जीवेशभेदगुणपूर्तिजगत्सुसत्त्व नीचोच्चभावमुखनक्रगणैः समेता दूर्वाद्यजापतिगिलैर्गुरुराघवेन्द्र वाग्देवता सरिदमं विमलीकरोतु श्रीराघवेन्द्रः सकलप्रदाता स्वपादकञ्जद्वयभक्तिमद्भ्यः अघाद्रिसंभेदनदृष्टिवज्रः क्षमा सुरेन्द्रोऽवतु मां सदायम् श्रीराघवेन्द्रो हरिपादकञ्ज निषेवणाल्लब्धसमस्तसम्पत् देवस्वभावो दिविजद्रुमोऽयम् इष्टप्रदो मे सततं स भूयात् भव्यस्वरूपो भवदुःखतूल सङ्गाग्निचर्यः सुखधैर्यशाली समस्तदुष्टग्रहनिग्रहेषु दुरत्ययोपप्लवसिन्धुसेतु निरस्तदोषो निरवद्यवेषः प्रत्यर्थिमूकत्वनिधानभाषः विद्वत्परिज्ञेयमहाविशेषो वाग्वैखरी निर्जितभव्यशेषः सन्तानसम्पत्परिशुद्धभक्ति विज्ञानवाग्देहसुपाटवादीन् दत्त्वा शरीरोत्थसमस्तदोषान् हत्वा स नो व्याद्गुरुराघवेन्द्रः यत्पादोदकसञ्चयस्सुरनदीमुख्यापगा साधिता सङ्ख्यानुत्तमपुण्यसङ्घविलसत् प्रख्यातपुण्यावहः दुस्तापत्रयनाशनो भुवि महावन्ध्या सुपुत्रप्रदो व्यङ्गस्वङ्गः समृद्धिदो ग्रहमहापापापहस्तं श्रये यत्पादकञ्जरजसा परिभूषिताङ्गा यत्पादपद्ममधुपायितमानसाये यत्पादपद्मपरिकीर्तनजीर्णवाचः तद्दर्शनं दुरितकाननदावभूतं सर्वतन्त्रस्वतन्त्रोऽसौ श्रीमद्वमतवर्धनः विजयीन्द्रकराब्जोऽथ सुधीन्द्रवरपुत्रकः श्रीराघवेन्द्रो यतिरात् गुरुर्मे स्याद्भयापहः ज्ञानभक्तिसुपुत्रायुः यशःश्रीपुण्यवर्धनः प्रतिवादिजयस्वान्तभेदचिह्नादरो गुरुः सर्वविद्याप्रवीणोऽन्यो राघवेन्द्रान्न विद्यते अपरोक्षीकृतशीशः समुपेक्षितभावजः अपेक्षितप्रदातान्यो राघवेन्द्रान्न विद्यते अज्ञानविस्मृतिभ्रान्तिः संशयापस्मृतिक्षयाः तन्द्राकम्पवचः कौण्ठ्यमुखा ये चेन्द्रियोद्भवाः दोषास्ते नाशमायान्ति राघवेन्द्रप्रसादतः ॐ श्रीराघवेन्द्राय नमः इत्यष्टाक्षरमन्त्रतः जपिताद्भाविता नित्यम् इष्टार्थार्स्यूर्न संशयः हन्तु नः कायजान् दोषान् आत्मात्मीयसमुद्भवान् सर्वानपि पुमर्थांश्च ददातु गुरुरात्मवित् इति कालत्रये नित्यं प्रार्थनां यः करोति सः इहामुत्राप्त सर्वेष्टु मोदते नात्र संशयः अगम्यमहिमालोके राघवेन्द्रो महायशाः श्रीमध्वमतदुग्धाभि चन्द्रोऽवतु सदा नघः सर्वयात्रा फलावाप्तये यथा शक्ति प्रदक्षिणं करोमि तव सिद्ध्यर्थं वृन्दावनगतं जलं शिरसा धारयाम्यद्य सर्वतीर्थफलाप्तये सर्वाभीष्टार्थसिद्ध्यर्थं नमस्कारं करोम्यहं तव सङ्कीर्तनं वेदशास्त्रार्थज्ञानसिद्धये संसारे क्षयसागरे प्रकृतितो गाधे सदा दुस्तरे सर्वावद्यजलग्रहैरनुपमैः कामादिभङ्गाकुले नानाविभ्रमदुर्भ्रमे मितभयस्तोमादिफेनोत्कटे दुःखोत्कृष्टविषे समुद्धर गुरु मां मग्नरूपं सदा राघवेन्द्रगुरुस्तोत्रं यः पठेद् भक्तिपूर्वकं तस्य कुष्ठादिरोगाणां निवृत्तिस्त्वरया भवे अन्धोऽपि दिव्यदृष्टिः स्यात् येन मूकोऽपि वाक्पतिः पूर्णायुः पूर्णसम्पत्तिः स्तोत्रस्यास्य जपाद्भवे यः पिबेज्जलमेतेन स्तोत्रेणैवाभिमन्त्रितं तस्य कुक्षिगता दोषाः सर्वे नश्यन्ति तत्क्षणात् यद्वृन्दावनमासाद्य पङ्गुः खञ्जोऽपि वा जनः स्तोत्रेणानेन यः कुर्यात् प्रदक्षिणनमस्कृति स जङ्घालो भवेदेव गुरुराजप्रसादतः सोमसूर्योपरागे च पुष्यार्कादिसमागमे योनुत्तममिदं स्तोत्रमष्टोत्तरशतं जपे भूतप्रेतपिशाचादिपीडा तस्य न जायते एतस्तोत्रं समुच्चार्य गुरोर्वृन्दावनान्तिके दीपसंयोजनाज्ञानं पुत्रलाभो भवेद्ध्रुवम् परवादिजयो दिव्यज्ञानभक्त्यादिवर्धनं सर्वाभीष्टं प्रवृद्धिः स्यात् नात्र कार्याविचारणा राजचूरमहाव्याघ्रसर्पनक्रादिपीडनं न जायते स्य स्तोत्रस्य प्रभावान्नात्र संशयः यो भक्त्या गुरुराघवेन्द्रचरणद्वन्द्वं स्मरन् यः पठे स्तोत्रं दिव्यमिदं सदा न हि भवेत् तस्या सुखं किञ्चन किं त्विष्टार्थ समृद्धिरेव कमलानाथप्रसादोदया कीर्तिर्दिग्विदिता विभूतिरतुला साक्षी हया स्योत्र हि इति श्रीराघवेन्द्राय गुरुराजप्रसादतः कृतं स्तोत्रमिदं पुण्यं श्रीमद्भियप्पणाभिधैः पूज्याय राघवेन्द्राय सत्यधर्मरताय च भजतां कल्पवृक्षाय नमतां कामधेनवे ॐ श्रीराघवेन्द्राय नमः ॐ श्रीराघवेन्द्राय नमः ॐ श्रीराघवेन्द्राय नमः।